ओम नमो भगवते वासुदेवाय। अथाष्टादशोऽध्यायः। श्रीभगवानुवाच। वनं विविक्षो पुत्रेषु भार्यां न्यस्य सहैव वा वन एव वसेच्छान्तस्तृतीयं भागमायुषः। कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत्। वसीतवल्कलं वासस्तृणपर्णाजिनानि च केशरोमनखश्मश्रुमलानि बिभ्रियाद्दतः। न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः। ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षा श्वासारसाज्जले। आकण्ठमग्नशिशिरे एवं वृत्तस्तपश्चरेत्। अग्निपक्वं समश्नीयात् कालपक्वमथापि वा उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा। स्वयं सञ्चिनुयात् सर्वमात्मनो वृत्तिकारणं देशकालबलाभिज्ञो नादधीतान्यदारितम्। वन्यैश्च रुपुरो दाशैर्निर्वपेत् कालचोदितान्। न तु श्रौतेन पशुना मां यजेत वनाश्रमी। अग्निहोत्रं च दर्शश्च पूर्णमासश्च पूर्ववत् चातुर्मास्यानि च मुने राम्नातानि च नैगमैः। एवं चीर्णेन तपसा मुनिर्धमनि सन्ततः मां तपोमयमाराध्य ऋषिलोकादुपैति माम्। यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् कामायाल्पीयसे युञ्ज्यात् बालिशः को परस्ततः। यदासौ नियमे कल्पो जरया जातवे पथुः आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत्। यदा कर्मविपाकेषु लोकेषु निरयात्मसु विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः। इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्युजे अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत्। विप्रस्य वै सन्न्यसतो देवादारादिरूपिणः विघ्नान् कुर्वन्त्ययं यस्मानाक्रम्य समियात् परम्। बिभ्रियाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम्। त्यक्तं न दण्डपात्राभ्यामन्यत् किञ्चिदनापदि दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम्। सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत्। मौनानीहा निलायामा दण्डावाग्देहचेतसाम् नय्येते यस्य सन्त्यङ्गवेणुभिर्न भवेद्यतिः। वृक्षान् चतुर्षु वर्णेषु विगर्यान् वर्जयंश्चरेत्। सप्तागारान् संक्लिप्तान् स्तुष्येल्लब्धेन तावता बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः। विभज्य पावितं शेषं भुञ्जिताशेषमहरितम् एकश्चरेन्महीमेतां निस्सङ्गः संयतेन्द्रियः। आत्मक्रीडा आत्मरत आत्मवान् समदर्शनः विविक्तक्षेमशरणो मद्भावविमलाशयः। आत्मानं चिन्तयेदेकमभेदेन मया मुनिः अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया। बन्ध इन्द्रिय विक्षेपो मोक्ष एषां च संयमः। तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनिः। विरक्तः क्षुल्लकामेभ्यो लब्ध्वात्मनि सुखं महत् पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत्। पुण्यदेशसरिच्छैलवनाश्रमवतीं महीं वानप्रस्थाश्रमपदे स्वभीक्ष्णं भैक्ष्यमाचरेत्। संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा नैतद्वस्तुतया पश्येत् दृश्यमानं विनश्यति। असक्तचित्तो विरमेदिहामुत्रचिकीर्षितात् यदेतदात्मनिजगन्मनोवाक्प्राणसंहतम्। सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत्। ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वा नपेक्षकः सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः। बुधो बालकवत्क्रीडेत् कुशलो जदवच्चरेत्। वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत्। वेदवादरतो न स्यान्न पाखण्डी न हैतुकः शुष्कवादविवादेन कञ्चित् पक्षं समाश्रयेत्। नो द्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु अतिवादांश्चितिक्षेत नावमन्येत कञ्चन। देहमुद्दिश्य पशुवद् वैरं कुर्यान्न केनचित्। एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः। यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च अलब्ध्वा न विषीदेत काले काले शनं क्वचित्। लब्ध्वा न ऋष्येद्धृतिमानुभयं दैवतन्त्रितम्। आहारार्थं समीहेत युक्तं तत्प्राणधारणं तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते। यदृच्छयोपपन्नान्न मद्याच्छ्रेष्ठमुतापरम् तथा वासस्तथा शय्याम् प्राप्तम् प्राप्तम् भजेन्मुनिः शौचमाचमनम् स्नानम् न तु चोदनयाचरेत् अन्यांश्च नियमाङ्ग्यानि यथाहम् लीलयेश्वरः न हि तस्य विकल्पाख्याया च मद्वीक्षया हता आदेहान्तात् क्वचित् ख्यातिस्ततः सम्पद्यते मया दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् अजिज्ञासितमद्धर्मो गुरुम् मुनिमुपाव्रजेत् तावत् परिचरेत् भक्तः श्रद्धावान् न सूयकः यावत् ब्रह्म विजानीयान् मामेव गुरुमादृतः यस्त्वसंयतसद्वर्गः प्रचण्डेन्द्रियसारथिः ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति सुरानात्मानमात्मस्थम् निन्नुते माम् च धर्मः अविपक्वकषायोऽस्मादमुस्माच्च विहीयते भिक्षोर्धर्मः समो हिंसा तप ईक्षा वनौकसः गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ब्रह्मचर्यम् तपः शौचम् सन्तोषो भूतसौहृदम् गृहस्थस्याप्रियतौ गन्तुः सर्वेषाम् मदुपासनम् इति माम् यः स्वधर्मेण भजन्नित्यमनन्यभाक् सर्वभूतेषु मद्भावो मद्भक्तिम् विन्दते दृढाम् भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् सर्वोत्पत्त्यप्ययम् ब्रह्म कारणम् मोपयाति सः इति स्वधर्मनिर्णिक्त सत्त्वो निर्ज्ञातमद्गतिः ज्ञानविज्ञानसम्पन्नो नचिरात् समुपैति माम् वर्णाश्रमवताम् धर्म एष आचारलक्षणः स एव मद्भक्तियुतो निःश्रेयसकरः परः एतत्तेऽपि हितम् साधो भवान् पृच्छति यच्च माम् यथा स्वधर्मसंयुक्तो भक्तो माम् समीयात् परम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादशस्कन्धे अष्टादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।